नमस्काराः अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे सप्तदशः पाठः सारी जस्ट वन मोमेंट अष्टादशः पाठः एकं क्षणं आई थिंक माई presentation has not yet loaded. I'll just take it. अद्य वैयाकरणभूषणसारस्य धात्वर्थप्रकरणे अष्टादशः पाठः मार्च् मासस्य षोडशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणं स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते भूषणसारस्य धात्वर्थप्रकरणे भावनायाः धात्वर्थत्वसाधनम् अस्माभिः अधीयमानमस्ति. एतावता फलव्यापारयोर्धातुः आश्रयेत तिङस्मृताः फले प्रधानं व्यापारः तिङर्थस्तु विशेषणम् इत्यनेन वैयाकरणसिद्धान्तं प्रतिज्ञाय ततः तत्साधनार्थं प्रयतते. तत्र तिङाम् आख्यातार्थत्वं साधितम्, फलव्यापारयोः उभयोः वाच्यत्वं साधितम्. अधुना वाच्या या भावना सा तिङर्थः अथवा धात्वर्थः इति मीमांसकवैयाकरणयोः विवादे प्रवृत्ते भावनायाः धात्वर्थत्वं साधयितुं प्रयतते कौण्डभट्टः. तत्र केचन वादाः अस्माभिः दृष्टाः. मीमांसकमते आख्यातवाच्यैव भावना न धातुवाच्य इत्युक्त्वा तत्र तिस्रः युक्तयः प्रदर्श्यन्ते मीमांसकैः. प्रत्ययार्थप्राधान्यन्यायः प्रकृतिप्रत्ययौ सहार्थं ब्रूतः तत्र प्रत्ययार्थः प्रधानम् इति न्यायेन प्राधान्यात् भावप्रधानमाख्यातम् इति यास्कवचनेन तिङन्तेषु भावनायाः प्राधान्यं ज्ञायते. सा भावना प्रत्ययार्थः भवेत् इति तेषां मतम्. तदागमन्यायः तदागमे हि तद्दृश्यते इति. आख्यातागमे भावनायाः प्राधान्येन प्रतीतिः भवति, आख्याताभावे भावनायाः प्राधान्यं न भवति. अतः आख्यातार्थः एव भावना इति. पचति इत्यस्य पाकं करोति इति विवरणं दीयते. तत्र धात्वर्थः पाकम् इत्यनेन प्रत्ययार्थः करोति न च विव्रियते. करोतिश्च यत्नार्थकः अथवा भावनार्थकः. अतः भावनार्थक करोति न विवृतत्वात् प्रत्ययार्थः एव भावना इति. इत्येवं युक्तीः प्रदर्शयन्ति मीमांसकाः. तासां युक्तीनां खण्डनं क्रियते वैयाकरणैः. फलमात्रस्य धात्वर्थत्वे यदि भावना आख्यातार्थः इत्यङ्गीक्रियते तदा धात्वर्थः फलमेव. तथा सति ग्रामो गमनवान् इति प्रयोगः स्यात्. यतोहि गमनम् इति भावार्थे ल्युट् प्रत्ययः, भावश्च धात्वर्थः अतः फलम्. अतः संयोगः गमनम् इत्यस्य संयोगानुकूलव्यापारः इत्यर्थः न भवति, अपि तु केवलं संयोगः इत्यर्थः भवति. एवञ्च ग्रामेऽपि संयोगस्य सत्त्वात् ग्रामोगमनवान् इति प्रयोगः स्यात्. सिद्धान्ते तु फलव्यापारयोः उभयोः धात्वर्थत्वात् भावपदार्थस्य संयोगानुकूलव्यापारः एव अर्थः. यथा च गमनम् इति व्यापारः संयोगानुकूलः व्यापारः ग्रामे नास्ति इत्यतः ग्रामोगमनवान् इति प्रयोगो न भवति.
तदा नव्यमीमांसकै रुच्यते अस्तु तर्हि फलव्यापारौ धात्वर्थः व्यापारानुकूला कृतिः आत्मनिष्ठः व्यापारः सा एव भावना सा प्रत्ययार्थः तस्याः एव प्राधान्यम् इति तदा वैयाकरणैरुच्यते सर्वविधस्यापि व्यापारस्य धातुलभ्यत्वे धातोः व्यापारे शक्तिः कल्पनीया अत्र तु कस्यचिद् धातोः कस्यचित् कस्मिंश्चित् व्यापारे शक्तिः आख्यातस्य अन्यस्मिन् व्यापारे शक्तिः इत्येवं गौरवम् तदपेक्षया सर्वविधोऽपि व्यापारः धातुलभ्यः इत्यत्रैव लाघवम् इति वैयाकरणाः किञ्च प्रत्ययार्थप्राधान्यन्यायः प्रस्तूयते तस्य अङ्गीकारे पक्ववान् इत्यस्य पाकं कृतवान् इति विवरणं दीयते तत्र पक्ववान् इति पच् धातोः विवरणं पाकम् इति प्रत्ययस्य विवरणं कृतवान् इति तत्र पाकम् इत्यत्रापि अम् प्रत्ययः अस्ति अनेनैव न्यायेन प्रत्ययार्थप्राधान्यन्यायेन पाकम् इत्यस्य कर्म अर्थः भवति एवं कृतवान् इत्यत्र प्रत्ययार्थः कर्ता अतः कर्तुः प्राधान्यात् कृतवान् इत्यनेन कर्ता बोध्यते एवञ्च प्रकृतिभागात् कर्म प्रत्ययभागाच्च कर्तुः बोधे जाते परस्पर अन्वयः एव न भवति अन्वये सत्येव कस्य प्राधान्यम् इति विचारः भवितुमर्हति परस्पर अन्वयः एव न भवति यतोहि कारकाणां परस्परान्वयः नाङ्गीक्रियते क्रियायाम् एव सर्वेषां कारकाणाम् अन्वयः परस्परान्वयस्तु नास्ति इत्यतः प्रकृत्यर्थप्रत्ययार्थयोः अन्वयस्यैव अभावः तथा सति प्राधान्यविचारः न भवति किञ्च अयन्यायः केवलम् औत्सर्गिकः प्रकृत्यर्थः प्रधान एव भवति इति वा अथवा यः प्रधानः सः प्रत्ययार्थः एव प्रकृत्यर्थः क्षमतां प्रत्ययार्थः प्रधानः अथवा विशेष्यभूतः इति वा अथवा यः प्रधानः सः प्रत्ययार्थ एव इति वा नियमः कर्तुं न शक्यते यतोहि विशेष्यत्वादिना बोधस्तु व्युत्पत्त्यनुरोधेन येषां यथा व्युत्पत्तिः तथाविधः बोधः दृश्यते अत एव वैयाकरणानां व्यापारमुख्यविशेषकः बोधः नैयायिकानां तु प्रथमार्थमुख्यविशेषकबोधः एवमेव लक्षणायामपि आलङ्कारिकाणां शक्यतावच्छेदकप्रकारकः बोधः नैयायिकानां तु लक्ष्यतावच्छेदकप्रकारकबोधः इति बोधे भेदः व्युत्पत्त्याधारेण भवति न तु अर्थस्य आधारेण इत्युक्ते कः प्रत्ययार्थः कः प्रकृत्यर्थः इत्येतदाधृत्य बोधः इति न भवति अतः पाणिनिना स्वयम् उक्तमस्ति प्रधानप्रत्ययार्थवचनम् अशिष्यम् नाम वक्तुम् अयोग्यम् शासितुम् न शक्यते किमर्थम् अर्थस्य अन्यप्रमाणत्वात् लोकत एव अर्थस्य सिद्धेः यथा यस्य व्युत्पत्तिः तथा बोधः अर्थस्य प्राधान्यम् भवति अतः प्रत्ययार्थः प्रधानम् इत्येवम् नोच्यते इति पाणिनिना स्वयमुच्यते अतः सः न्यायः अङ्गीकर्तुम् न शक्यते तदागमन्यायस्यापि अतिव्याप्तिः प्रदर्शिता पूर्वमुक्तम् आख्यातागमे भावनाप्रतीतिः आख्याताभावे भावनायाः नास्ति वाच्यत्वम् इति किन्तु पक्वम् इत्यादि कृदन्तस्थलेषु अपि भावनायाः प्राधान्येन प्रतीतिः अस्ति यद्यपि आख्यातः नास्ति तथापि भावनायाः प्रतीतिः अस्ति अस्तु तर्हि यथा तिङन्ते तथा कृदन्तेषु अपि भावनायाः वाच्यत्वम् भवतु इति चेत् तदा तस्य प्राधान्यम् स्यात् प्रत्ययार्थः प्रधानमिति सत्त्वप्रधानानि नामानि इति व्यास्कवचनस्य विरोधः स्यात् अतः अनेनापि भावनायाः आख्यातार्थत्वम् साधयितुम् न शक्यते किन्तु उभयत्रापि तिङन्ते कृदन्ते च साधारण्येन यः धातुः तस्मादेव भावनावाच्या इति वक्तव्यम् अत एव एतदपि प्रदर्श्यते कारकार्थेषु कृत्प्रत्ययाः क्रियन्ते यथा कर्मणि किं कार्यम् पचनीयम् इति कर्मणि ण्यत् प्रत्ययः कार्यम् इत्यत्र पचनीयम् इत्यत्र कर्मणि अनीयर् प्रत्ययः इत्यादयः एवमेव ज्योतिष्टोमयाजी इत्यत्र करणे उपपदे कर्तृर्थे णिनि प्रत्ययः इत्येवं भिन्नेषु कारकेषु कारकार्थेषु कृत् प्रत्ययाः विधीयन्ते. एते सर्वे प्रत्ययाः भावनायाः वाच्यत्वं विना न सम्भवन्ति. यदि क्रिया नास्ति तर्हि कारकत्वं कुतः? अतः यदि क्रिया वाच्या नास्ति तर्हि भिन्नेषु कारकार्थेषु प्रत्ययानां सम्भवः नास्ति. अतः भावनायाः वाच्यत्वम् अङ्गीकरणीयम्. सर्वत्र यथा तिङन्ते तथा कृदन्तेऽपि भावना प्रतीतिः अस्ति इत्यतः उभयसाधारण्येन यः धातुः समानः अस्ति उभयत्र तस्यैव वाच्यार्थः भावना इति अङ्गीकर्तव्यम्. अथ इति एतावत्पर्यन्तम् अधीतम्. अग्रे इममेव वादम् अनुवर्तयति. अथ लिङ्गसङ्ख्यान्वयानुरोधात् कर्तुः वाच्यत्वम् आवश्यकम् इति तेन आक्षेपात् भावना प्रत्ययः स्याद् इति मतम्. तर्हि सङ्ख्यान्वयोपपत्तये आख्याते अपि कर्ता वाच्यः स्यात्. किमुच्यते, कृदन्तेषु लिङ्गसङ्ख्यान्वयः दृश्यते. यथा पक्ववान् पक्ववन्तः इति सङ्ख्याभेदः, एवं पक्ववान् पक्ववती पक्ववत् इति लिङ्गभेदः दृश्यते. लिङ्गं सङ्ख्या च प्रतीयते, तत् कुत्र अन्वेति? पक्ववान् पक्ववन्तः इति सङ्ख्या वा लिङ्गं वा कर्तरि एव अन्वेति. अतः लिङ्गसङ्ख्या अन्वय अनुरोधात् कर्तुः वाच्यत्वम् आवश्यकम्. यदि कर्ता वाच्यार्थः नास्ति तर्हि लिङ्गस्य सङ्ख्याया वा अन्वयः कुत्र इति कर्तुः वाच्यत्वं भवति कृदन्तेषु. अत एव सत्त्वप्रधानानि नामानि इति यास्कवचनमपि सङ्गच्छते. तेन आक्षेपात् कर्त्रा आक्षेपात् भावनाप्रत्ययः स्यात् इति मतम्. अतः भावना वाच्या नास्ति कृदन्ते प्रत्ययेन, प्रत्ययेन वा धातुना वा भावना तु वाच्या नास्ति. कर्ता प्रत्ययेन उच्यते, तस्यैव प्राधान्यम्. भावना तु कर्त्रा आक्षिप्यते. कर्ता भावनां विना अनुपपन्नः सन् भावनाम् आक्षिपति इति चेत् तर्हि सङ्ख्यान्वयोपपत्तये आख्याते अपि कर्ता वाच्यः स्यात्. तर्हि आख्याते का गतिः? आख्याते अपि सङ्ख्या दृश्यते किल, लिङ्गं तु नास्ति. लिङ्गं नास्ति आख्याते. आख्याते नाम तिङन्ते, लिङ्गं नास्ति, सङ्ख्या तु अस्ति. सङ्ख्यायाः अन्वयः कुत्र भवति? कर्तरि भवति. यदि वाच्ये कर्तरि एव लिङ्गसङ्ख्यान्वयः भवेदित्यनुरोधः तर्हि आख्याते नाम तिङ् प्रत्यये अपि कर्ता वाच्यः स्यात्. तत्तु नाङ्गीक्रियते मीमांसकैः. तत्र कर्ता आक्षेपाल्लभ्यते, आक्षिप्ते कर्तरि सङ्ख्यायाः अन्वयः इति. अत्र तु वाच्ये कर्तरि एव अन्वयः भवेत् आक्षेपाद्भावना इत्येवं परस्पर साङ्गत्यं नास्ति. पक्ववान् इत्यादौ कालकारक अन्वय अनुरोधात् अपि च तैरुच्यते कृदन्तेषु लिङ्गसङ्ख्या अन्वयानुरोधात् कर्तुः वाच्यत्वं भावना आक्षेपाल्लभ्यते इति. किन्तु पक्ववान् इत्यादौ कालकारक अन्वयानुरोधात् अत्र न केवलं लिङ्गस्य सङ्ख्यायाः अपि तु कालस्य अन्वयः अस्ति. भूते तव तु प्रत्ययः, कालस्य कुत्र अन्वयः? व्यापारे एव अन्वयः. अत एव पक्ववान् इत्युक्ते पाककर्म पाकक्रिया समाप्ता इति क्रियायाः एव भूतकालिकत्वं प्रतीयते. यदि कर्तरि कालस्य अन्वयः तर्हि यावत् सः पाचकः जीवति तावत् पक्ववान् इति प्रयोगः न स्यात्. तथा तु नास्ति. अतः कालस्य व्यापारे भावनायाम् एव अन्वयः. एवञ्च कारकं पक्ववान् इत्यत्र कर्ता अस्ति, कारकस्य अन्वयः भवेत्. कालकारक अन्वयानुरोधात् भावनायाः अपि वाच्यत्वस्य आवश्यकत्वात् न केवलं लिङ्गसङ्ख्यान्वयः कालकारकान्वयः अपि अपेक्ष्यते. भावनायाः वाच्यत्वं नास्ति चेत् तत् कथम् इत्यतः भावना अपि वाच्या. कथं तर्हि? धातुना भावना वाच्या, प्रत्ययेन कर्ता वाच्यः. प्रत्ययार्थे कर्तरि लिङ्गसङ्ख्यान्वयः, धात्वर्थे भावनायां कालकारकान्वयः इति सर्वं सम्यक् उपपादयितुं शक्यते अस्मन्मते, अर्थात् वैयाकरणमते इत्यर्थः. अथ लिङ्गसङ्ख्यान्मयानुरोधात् कर्तुः वाच्यत्वम् आवश्यकम् इति तेन आक्षेपात् भावनाप्रत्ययः स्यात् इति मतम् अथ एतद्मतम् चेत् इत्यर्थः तर्हि सङ्ख्यान्वयोपपत्तये आख्यातेऽपि कर्ता वाच्य स्यात् पक्ववान् इत्यादौ कालकारकान्वयानुरोधात् भावनायाः अपि वाच्यत्वस्य आवश्यकत्वाच्च इति भावः अपिना हेत्वन्तरसमुच्चयः किं कार्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि इत्यस्ति. कृत्सु अपि कारकाः दृष्टाः, कारकाणि दृष्टानि, तदन्वयार्थं क्रियायाः वाच्यत्वम् आवश्यकम् इति प्रतिपादितम्. न केवलं कृत्सु, अन्यत्रापि अस्ति हेत्वन्तरसमुच्चयः, अन्ये हेतवः अपि समुच्चीयन्ते. तथा हि नखैर्भिन्नः नखभिन्नः, हरिणात्रातः हरित्रातः इत्यादौ कर्तृकरणे कृता बहुलम् इति समासो न स्यात् असामर्थ्यात्. कर्तृकरणे कृता बहुलम् इत्यनेन कर्तृवाचकं करणवाचकं वा कृदन्तेन समस्यते इति सूत्रेण उच्यते. यथा नखैर्भिन्नः इत्यत्र नखाः करणं, भेदने, भेदन इस् टु स्प्लिट् आर् टु टेर्, अतः तत्र नखाः करणं, करणवाचकं नख नखैः इति सुबन्तं, कृदन्तेन भिन्न इत्यनेन समस्यते, अतः नखैः भिन्नः नखभिन्न इति समासः. एवं हरिणा त्रातः, त्राणं नाम रक्षणं, रक्षणे हरिः कर्ता, कर्तृवाचकः हरिः, त्रात इति कृदन्तेन सह समस्यते, हरित्रातः इति समासः. अत्र यदि क्रियायाः वाचकत्वं नास्ति, भिन्नः इत्यत्र कृदन्तं तेन समासः क्रियते, अत्र यदि धातुना क्रिया नोच्यते, भावना वाच्या नास्ति, त्रा इत्यत्रापि धातुना भावना यदि वाच्या नास्ति, तर्हि कर्तृत्वं करणत्वं वा न सम्भवति. न सम्भवति चेत् कथं समासः? कर्तृकरणे कृता बहुलम् इति समासः न स्यात्. पुरुषः राज्ञः भार्या देवदत्तस्य इतिवत् असामर्थ्यात्. परस्परं सामर्थ्यं नास्ति. सामर्थ्यं नाम किम्? राज्ञः भार्या, राजभार्या इत्युच्यते, वैफ् आफ् अ किङ्ग्. राज्ञः भार्या इति विग्रहे राजभार्या इति समासः भवति. यदि वाक्यं पुरुषः राज्ञः भार्या देवदत्तस्य, राज्ञः पुरुषः भार्या देवदत्तस्य इति वाक्यम् अत्र राज्ञः भार्या राजभार्या, पुरुषः राजभार्या देवदत्तस्य इति न भवति, असामर्थ्यात् इत्युच्यते. परस्परं सामर्थ्यं नास्ति. एकार्थी भावः सामर्थ्यं समासे. द केपासिटि आफ् टु वर्ड्स् टु कम्बैन् वित् ईच् अदर् टु कन्वे अ सिङ्गल् मीनिङ्ग्. सो फार् दट् द वर्ड्स् हाव् टु बि रिलेटेड् टु ईच् अदर्. अत्र तु राजसम्बन्ध राजन् राजपदस्य पुरुषेण सह अन्वयः, भार्या इत्यस्य तु देवदत्तेन अन्वयः. परस्परम् अन्वयः नास्ति इत्यतः सामर्थ्यं नास्ति. एवं समासो न भवति. यदि अत्र नखैर्भिन्नः नखभिन्न हरित्रात इत्यादिषु भावनायाः वाच्यत्वं नास्ति, तदा नखशब्दस्य करणत्वं कुत्र? क्रियायाः कारकस्य क्रियया एव अन्वयः शक्यते. यदि भिन्न इत्यत्र क्रियायाः वाच्यत्वं नास्ति, तर्हि परस्पर अन्वयः न भवति. सामर्थ्यं नास्ति चेत् समासो न स्यात्. तथा हि नखैर्भिन्नः नखभिन्नः, हरिणात्रातः हरित्रातः इत्यादौ कर्तृकरणे कृता बहुलम् इति समासः न स्यात्. पुरुषो राज्ञः भार्या देवदत्तस्य इतिवत् असामर्थ्यात्. सामर्थ्यं नास्ति, परस्पर अन्वयः नास्ति, क्रियां विना कारकान्वयः न भवति इत्यतः असामर्थ्यात् समासः न स्यात्. न च अध्याहृतक्रियामादाय सामर्थ्यं वाच्यम्. अस्तु, यदि परस्परं सामर्थ्यं नास्ति, परस्परम् अन्वयः नास्ति, तर्हि क्रियायाः अध्याहारं कुर्मः. नखैः कृतः भिन्नः इति किमपि करणक्रियाम् अध्याहृत्य अध्याहृतक्रियामादाय सामर्थ्यं वदामः. दध्योदनः गुडधानाः इत्यादिवत् तत्र कानिचन उदाहरणानि दृश्यन्ते. दध्योदनः अन्नेन व्यञ्जनम् इति सूत्रेण समासः. दध्ना ओदनः दध्योदनः. एवं गुडेन धानाः गुडधानाः इति भवति भक्ष्येण मिश्रीकरणम् इति समासः. परस्परं सामर्थ्यं कथं? दध्ना इति करणत्वमस्ति, ओदनः इति पदार्थः अस्ति. परस्परं सामर्थ्यं कथं? दध्ना इत्यस्य कुत्र अन्वयः इति चेत् अत्र काचित् क्रिया अध्याह्रियते, उपसेकक्रिया. दध्ना उपसिक्तः ओदनः. सो रैस् विच् इस् स्प्रिङ्कल्ड् आर् मिक्स्ड् वित् दधि कर्ड्स्. सिमिलर्ली गुडधानाः इत्यत्र मिश्रणक्रिया अध्याह्रियते, गुडेन मिश्रिताः धानाः. सो फ्लार् आर् धाना, धाना इस् अ कैण्ड् आफ् फ्लार् विच् इस् मिक्स्ड् वित् गुड जागरि. अत्र मिश्रणक्रिया अध्याह्रियते, क्रियायाः अध्याहारेणैव परस्परसम्बन्धः कल्पयितुं शक्यः, यतोहि दधिशब्दस्य उपसेकक्रियायामेव अन्वयः, गुड इति करणवाचकस्य मिश्रणक्रियायामेव अन्वयः. एवञ्च अध्याहृतक्रियामादाय सामर्थ्यं वाच्यं, दध्योदनः गुडधानाः इत्यादिवत्. अन्यथा तत्रापि अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणम् इति समासः न स्यात् इति वाच्यम् इति न वाच्यम् इत्यर्थः. एवं न वक्तव्यं. कुतः? तत्र तत्र नाम एतेषु उदाहरणेषु विध्यानर्थक्यात् विधेः नाम समासविधायकविधेः अनर्थक्यात् व्यर्थत्वात् निरर्थकत्वात् यदि अत्र क्रियायाः अध्याहारः न क्रियते तर्हि सूत्रमेव व्यर्थम्. अन्नेन व्यञ्जनम् इत्यस्य किमपि अन्नम् अपि पदार्थः, व्यञ्जनमपि पदार्थः नाम कारकम्. उभयोः क्रियां विना परस्परसम्बन्धः न भवति. एवं भक्ष्यम् अपि पदार्थः, मिश्रीकरणं यत् क्रियते मिश्रीकरणार्थम् उपयुक्तं गुड इत्यादिकं, सोऽपि पदार्थः, क्रियां विना परस्परसम्बन्धः नास्ति. इत्यतः यदि क्रियायाः अध्याहारः न क्रियते तर्हि विधेरेव अनर्थक्यं वैयर्थ्यं. सामर्थ्यात् तथा स्वीक्रियते नाम क्रियाध्याहारस्य स्वीकारः भवति. तथापि तत्र विध्यानर्थक्यात् अगत्य अन्यः कोऽपि मार्गः नास्ति इत्यतः तथा स्वीकारे नाम अध्याहृतक्रियामादाय सामर्थ्यस्वीकारेऽपि हरिकृतम् इत्यादौ साक्षात् धात्वर्थान्वयेन उपपद्यमानस्य, यदि धात्वर्थः व्यापारः इति अङ्गीक्रियते साक्षात् तत्र सामर्थ्यं भवत्येव, सामर्थ्यमस्ति वस्तुतः. कृतं कृ धातुना भावना क्रियते, अत एव अत्र कृ धातुः स्वीकृतः. तत्र साक्षात् धात्वर्थ अन्वयेन उपपद्यमानस्य, धात्वर्थेन अन्वये एव सामर्थ्यं सम्भवति. तथा सति कर्तृकरणे इत्यस्य आक्षेपेण परस्पर परम्परासम्बन्धे प्रवृत्ययोगात् तदा अस्य सूत्रस्य तु यत्र साक्षात् सम्बन्धः सम्भवति तत्र अध्याहृतक्रियामादाय परम्परया सम्बन्धः न युक्तः. यत्र तु अन्यः मार्गः नास्ति तत्र एवं वक्तव्यम्, किन्तु अत्र सम्भवति साक्षात् सम्बन्धे परम्परासम्बन्धः अयुक्तः. न च एकक्रियान्वयित्वमेव सामर्थ्यम् इति शङ्क्यम्. अस्तु, तर्हि सामर्थ्यं नाम किम्? परस्परान्वयः इति मास्तु, एकस्याम् क्रियाम् अन्वयसम्भवः, यथा दधि ओदन इत्युभयोः एकस्याम् उपसेकक्रियायाम् अन्वयः. एवं गुडधान इत्यत्र एकस्याम् मिश्रणक्रियायाम् अन्वयः. एवं नख भिन्न इत्यत्रापि आक्षिप्यते क्रिया भावना, तत्र उभयोः अन्वयः, तदेव सामर्थ्यम् इति वदामः इति चेत् इति न शङ्क्यम्. असूर्यं पश्याः इत्यादेः असमर्थसमासत्व अनापत्तेः. असूर्यं पश्याः राजदाराः इति प्रयोगः अस्ति. कः अर्थः? सूर्यं न पश्यन्ति राजदाराः अन्तःपुरस्त्रियः सूर्यमेव न पश्यन्ति तथा आवृताः. सो दे आर् सो प्रोटेक्टेड् दट् दे डु नाट् इवन् सी द सन् इत्यर्थे सः प्रयोगः अस्ति, असूर्यं पश्याः. अत्र कः क्लेशः अस्माकम् इत्युक्ते अर्थशः न शब्दशः कः क्लेशः, असूर्य पश्य इति त्रयः पदार्थाः सन्ति, नञ् पदार्थः, सूर्यः पश्य. कथं वक्तव्यं वस्तुतः, न सूर्यः असूर्यः, असूर्यं पश्यन्ति इति असूर्यं पश्याः इति वक्तव्यम्. किन्तु वस्तुतः अत्र नयः सूर्येण अन्वयः न, वि आर् नाट् सेयिङ्ग् न सूर्यः असूर्यः. न पश्यन्ति इति नयः दर्शने एव अन्वयः, नयः सूर्येण अन्वयः नास्ति, अतः अयं समासः न भवेत्. किन्तु भवति समासः, नयः दर्शने एव अन्वयः न तु सूर्ये, तथापि असूर्यं पश्याः इति समासः भवति असमर्थसमासः इत्युच्यते. प्रायेण सामर्थ्ये सत्येव समासः इति उक्तं पूर्वत्र, परस्पर अन्वयः भवेत्, एकार्थीभावसामर्थ्यं भवेत्, तत्रैव समासः इति. किन्तु असूर्यं पश्याः इत्यादिषु सामर्थ्याभावेऽपि गमकत्वात् समासः, अर्थात् तेन सह अर्थः बुध्यते इति समासः अङ्गीक्रियते. यदि एकक्रियान्वयित्वमेव सामर्थ्यं तर्हि अत्रापि सामर्थ्यमस्त्येव, यतोहि नयः सूर्यस्य च उभयोः एकक्रियायां दर्शनक्रियायामेव अन्वयः. नयः अपि दर्शनक्रियायाम् अन्वयः, सूर्यस्यापि दर्शनक्रियायाम् अन्वयः. तथा सति सामर्थ्यमस्ति, सामर्थ्यमस्ति चेत् समासः सहजतया एव भवति, असमर्थसमासत्वं न स्यात्. सर्वत्र अयम् असमर्थसमासः असमर्थसमासः इत्युच्यते. न च एकक्रियान्वयित्वमेव सामर्थ्यमिति शङ्क्यम् असूर्यं पश्याः इत्यादेः असमर्थसमासत्व अनापत्तेः, तत्र असमर्थसमासत्वं न स्यात्. इष्टापत्तौ अस्तु मास्तु असमर्थसमासः, सोऽपि समर्थसमासः एव भवतु इति इष्टापत्तिः. सो इष्टापत्ति इस् अ वर्ड् विच् इस् कामन्लि यूस्ड् इन् दिस् वन्. यदा केनचित् कश्चित् वादः प्रस्तूयते एवं स्याद् इति आपत्तिः प्रदर्श्यते, सा आपत्तिः इष्ट एव, भवतु किं तेन इति यत्र भवति सा इष्टापत्तिः इत्युच्यते. सो अ फाल्ट् विच् इस् शोन् विच् इस् एक्चुलि डिसैर्ड् आर् विच् डस् नाट् हर्ट् इस् काल्ड् इष्टापत्ति. अतः अत्र किमुच्यते, असूर्यं पश्याः इत्यादेः असमर्थसमासत्वं न स्याद् इति आपत्तिः प्रदर्श्यते. मास्तु असमर्थसमासत्वं, सोऽपि समर्थसमासः इत्येव स्वीकुर्मः इति चेत् इष्टापत्तौ, यदि इष्टापत्तिः इत्युच्यते तथा कृतः सर्वः मृत्तिकया इत्यत्र कृतसर्वमृत्तिकः इति आपत्तेः, तथा सति सर्वत्रापि एतादृशाः समासाः भवन्ति. कृतः सर्वः मृत्तिकया, सर्वोऽपि मृत्तिकया कृतः, तत्र सर्वः मृत्तिकया इति उभयोः कृत इति एकक्रियायाम् अन्वयः. सो सर्वः कृतः मृत्तिकया कृतः इति उभयोः कृत इत्यत्र अन्वयः, तथा सति कृतसर्वमृत्तिकः इति आपत्तेः इति समासः स्यात् सामर्थ्याद्. अत्रापि एकक्रियान्वयित्वरूपं सामर्थ्यं नास्ति, यद्यपि सर्वः मृत्तिकया इत्यनयोः परस्परं सामर्थ्यं नास्ति, एकक्रियान्वयित्वरूपं सामर्थ्यं तु अस्ति इत्यतः एवं समासः स्यात् न इष्यते, अयं समासः नेष्यते, तेन सः अर्थः न बुध्यते, अतः तादृशः समासः स्यात्. न च अत्र समासविधायक अभावः, स्यात् किन्तु समासविधायकं सूत्रं नास्ति. समासे अयं नियमः यत् सामर्थ्यं यत्र यत्र अस्ति तत्र सर्वत्र समासः भवति इति न. सामर्थ्ये सति अपि समासविधायकं सूत्रम् अस्ति चेदेव समासः इति नियमः. अत्र तु सामर्थ्यं भवतु, समासविधायकं सूत्रं नास्ति इत्यतः समासो न भवति इत्यपि वक्तुं न शक्यते. न च अत्र समासविधायकाभावः सहसुपा इत्यस्य सत्त्वात्. सहसुपा इस् अ सार्ट् आफ् डिफाल्ट् रूल् विच् वी हेव् इन् द समास. इट् जस्ट् मीन्स् सुबन्तेन समस्यते. सो इफ् देर् इस् सामर्थ्य, एनी टु सुबन्तस् केन् कम्बैन् वित् ईच् अदर्, वि काल् दिस् अस् केवलसमास. Samasa where other kinds of, you know, other labels such as avyayibhava, bahuvrihi, that purusha or dvandva do not apply. It is just a unclassified samasa. Sahasupa ityasya sattvad, tena kevala samasova bhavitumarhati. Anyatha, if we don't accept this sahasupa, asamartha samasopi vidhayaka bhavat nasyat. Asuryam pashyaha ityatrapi vidhayakam sutram nasti, samasas prayogastu asti. Ataha samasa vidhayaka bhavat samaso na bhavati iti vaktum na shakyate, atra samarthyam nasti ityeva vaktavyam. Samarthyam nasti ityukte kim paraspara anvayaha ekarthi bhavarupam samarthyam. Nachu natu eka kriyanvayitvam. Tatha sati tadrisha samarthya sadhanaya harina bhinna nakhair bhinnaha harinatrataha ityadishu bhavanayaha vachyatvam angikaraniyam iti sarvasyapi tatta tatparyam bhavana dhatu vachya. Atayeva kridanteshu vividha karakabodhakaha pratyayaha bhavanti samase api karakanam kridantaisaha samasaha bhavati. Yadi dhatuna bhavana vachya nasyat tarhi etat nasyat iti vadaha. Kincha advimam pramanam pradarshayati bhavanayaha dhatvarthatve. Kincha bhavanayaha tingarthatve. Yadi bhavana tingarthaha akhyatarthaha bhavayati ghatam itivat bhavati ghatam ityapi syat. Ghatam bhavayati ghataha bhavati kumbhakaraha ghatam bhavayati. So he causes it to exist. Ghataha bhavati, the pot is, or the pot is, exists. So kumbhakaraha ghatam bhavayati, he makes the pot to exist or to come into being. Bhavayati ghatam ityatra ghatapadat dvitiya drishyate. Tadvat bhavati ghatam ityapi syat. Ghataha bhavati iti vastutaha prayogaha prathamantaha. Kintu ghatam bhavati iti prayogaha syat. Dhatvartha palashrayatva rupa karmatva sattvat. Katham iti chet phala karmatvam asti. Vayyakranamate kim dhatvartha palashrayaha karma dhatvartha vyaparashrayaha karta iti vayyakranaanam siddhantaha. Phalam vyaparashta dhatvartha tatva dhatvartha yat phalam tadashrayaha karma dhatvarthaha yaha vyaparaha tadashrayah karta. Bhavati ityatra kim bhavati dhatvarthaha phalam satta. Satta nama sataha bhavaha, existence is satta. Sattashrayatvat ghatasya karmatvam tatra vyaparaha api asti sattanukulaha vyaparaha tadashrayatvat kartrutvam. Kartrutvat karma samyayaha badhaha. Karmatvam api asti, kartrutvam api asti, tatra kartrusamyaya karma samya badhyate iti vayyakrana siddhantaha. Mimamsakamate kim bhavati dhatvartha phalashrayaha karma. Dhatvarthaha phalam tadashrayaha karma akhyatartha vyaparashrayaha karta. Kartatu vyaparasya ashrayaha vyaparaha akhyatarthaha natu dhatvarthaha iti mimamsakamatam. Tatra kim bhavati nacha akhyatartha vyaparashrayatvena kartrutvat tatsamyaya karma samyayaha badhat nadvitiya iti vachyam. Kim vadati kincha bhavanayaha tingarthatve bhavayati ghatam iti vat bhavati ghatam ityapi syat dhatvartha phalashrayatva rupa karmatva sattvat nacha akhyatartha vyaparashrayatvena kartrutvat tatsamyaya karma samyayaha badhat nadvitiya iti vachyam. Akhyatartha vyaparashrayasya kartrutve yadi akhyatartha vyaparashrayaha karta iti angi kriyate yatha mimamsakairuchyate tatha tada kim bhavati pachayati devadatto vishnumitrena ityatra vishnumitrasya akartruta pattau tritiya anapattehe. Yadi akhyatartha vyaparashrayaha karta devadattaha vishnumitrena pachayati iti prayogaha. Vishnumitraha पचति देवदत्तः विष्णुमित्रेण पाचयति. विष्णुमित्र कुक्स, देवदत्त कॉजस विष्णुमित्र टू कुक. पाचयति इति निजंत प्रयोगः, प्रेरणार्थक निजंतः, कॉसल निच. ओके, यथा पठति पाठयति, भवति भावयति, एवं पचति पाचयति. पच धातोः निच प्रत्ययः, पाचि इति भवति, तस्मात् तिङ् प्रत्ययः. अत्र धातु द्वयमस्ति, पच इति केवल धातुः. ओके, सो दैट इज द ओरिजिनल सिंपल धातु. कः अर्थः? विक्रित्यनुकूलः व्यापारः अर्थः. पच धातोः निच् क्रियते, तत्र पाचि इति भवति. अयमपि धातुः निजन्तधातुः, सनाद्यन्ताधातवः इत्यनेन अस्यापि धातुसंज्ञा अस्ति. अस्य धातोः कः अर्थः? विक्रित्यनुकूलः यः व्यापारः, तस्य प्रेरणारूपः व्यापारः. सो पाचि द निजन्त मीन्स् टु कास् द व्यापार आफ् पच्. टु कास् पच् इस् पाचि. ओके, सो टु कास् कुकिङ्ग्. सो विक्लित्यनुकूलः यः व्यापारः, तस्य प्रेरणारूपः व्यापारः निजन्तधातोः अर्थः. एवञ्च अत्र धातुद्वयमस्ति, व्यापारः भिन्नः इति वैयाकरणमतम्. तत्र किं भवति? विक्लित्यनुकूलः व्यापारः, सो द एक्चुअल् एक्शन् विच् कासस् विक्लित्ति कुत्र अस्ति? विष्णुमित्रे अस्ति, बिकास् इट् इस् विष्णुमित्र हु इस् कुकिङ्ग्. अतः विष्णुमित्रः कर्ता, he is called prayojya karta. Viklitya anukula vyaparasya prerana rupah vyaparah, the action of causing the action of cooking. Okay, so that causal action, prerana rupah vyaparah kutra asti? Devadatte asti. So it is devadatta who is causing Vishnumitra to cook. Ataha devadattah api karta, saha prayojaka karta ityuchyate. सो अयं सर्वत्र निजन्तेषु सामान्यतः दृष्टः. एकः प्रयोजककर्ता भवति, निजन्तव्यापारस्य आश्रयः, निजन्तयः निजन्तधातोः यः व्यापारः तदाश्रयः. अपरः प्रयोज्यकर्ता, केवलधातोः व्यापारस्य आश्रयः इति वैयाकरणसिद्धान्तः. वैयाकरणमते निजन्तधात्वर्थव्यापाराश्रयः देवदत्तः. सो द प्रेरणारूप व्यापारः देवदत्ते अस्ति, अतः सः कर्ता. तस्य कर्तुः तिङ् प्रत्ययेन अभिहितत्वात्, सो द पाचयति. सो द तिङ् प्रत्यय देर् रेफर्स् टु दिस् कर्ता, बिकास् द तिङ् प्रत्यय इस् एडेड् टु द निजन्त धातु. सो द कर्ता देर् रेफर्स् टु द कर्ता आफ् द निजन्त. एषः एव प्रयोजककर्ता. अभिहितत्वात् देवदत्तपदात् प्रथमा विभक्तिः भवति. केवलधात्वर्थव्यापाराश्रयः, सो नौ द एक्चुअल् एक्शन् आफ् कुकिङ्ग्. ओके, धात्वर्थः पच इति धातोः यः व्यापारः, तदाश्रयः विष्णुमित्रः. तस्य अनभिहितत्वात् दत् कर्ता हेज् नाट् बीन् एक्स्प्रेस्ड्, बिकास् द तिङ् प्रत्यय इस् आन् द निजन्त धातु. इट् रेफर्स् टु द व्यापार आफ् द निजन्त, इट् डस् नाट् रेफर् टु द केवल धातोः व्यापारः. अतः विष्णुमित्रः अनभिहितः. अनभिहितत्वात् कर्तरि तृतीया इत्यनेन तृतीया, देवदत्तः विष्णुमित्रेण पाचयति इति प्रयोगः. एषः एव प्रयोज्यकर्ता इत्युच्यते. यदि इदानीम् एतत् सर्वं कुत्र सम्भवति? धात्वर्थः व्यापारः, अतः पच धातोः कश्चिद् व्यापारः, तदाश्रयत्वेन विष्णुमित्रस्य कर्तृत्वम्. पाचि इति निजन्तः यः धातुः, तदर्थः कश्चिद् व्यापारः, तदाश्रयत्वेन देवदत्तस्यापि कर्तृत्वम् इति सम्भवति. यदि तु आख्यातार्थव्यापाराश्रयः कर्ता, आख्यातार्थव्यापाराश्रयस्य कर्तृत्वे पाचयति देवदत्तो विष्णुमित्रेण इत्यत्र विष्णुमित्रस्य अकर्तृतापत्तौ. इदानीं पाचयति इत्यत्र आख्यातार्थव्यापाराश्रयः कर्ता, आख्यातः अस्ति पाचयति. आख्यातार्थेन आख्यातार्थव्यापारस्य आश्रयः देवदत्तः. ओके, अतः देवदत्तस्य कर्तृत्वम् अस्ति, किन्तु विष्णुमित्रस्य कर्तृत्वं नास्ति. बिकास् द आख्यात गिव्स् द मीनिङ्ग् आफ् द व्यापार आफ् द निजन्त धातु, only Devadatta will get kartrutva. Vishnumitrasya kartrutvam nasti. Because the akhyata does not express the vyapara of kevaladhatu. Ataha Vishnumitrasya akartruta pattau tritiya anapattehe. Tritiya eva nasyat. Pasayati Devadattaha Vishnumitrena. Tatra kartari, kartrakaranayos tritiya ityanena kartrarthe tritiya vibhaktihi. Na bhavati Vishnumitrasya kartrutvam nasti ityataha. Clear? Any questions? Akhyatartha vyaparashrayasya kartrutve pachayati devadatto Vishnumitrena ityatra Vishnumitrasya akartruta pattau tritiya anapattehe. Gramam gamayati devadatto Vishnumitram ityatra Vishnumitrasya akartruta pattau gramasya gamikarmatva anapattescha. Tatra yada evamuchyate Vishnumitrasya akartruta pattau tritiya nasyaditi tatra mimamsakaihi samadhanamuchyate. Nana evamna nich samabhivyahritasya akhyatasya vyapara dvayarthakatvam svikriyate. So yaha akhyatah asti pachayati ityatra nijantad yaha akhyatah namating pratyayah tasya vyapara dvayarthakatvam arthat kevaladhatoho yaha vyaparah nijantah prerana rupah vyaparah ubhayamapi tena akhyatena bodhyate. Ataha ubhayoho ashrayasya kartrutvam siddhyati iti vadanti. Tena prayojaka prayojyayoho ubhayoho kartrutva nirvahaha. Akhyatasya vyapara dvayarthakatvam. Vyapara dvayam akhyatena budhyate. Ataha ubhayoho kartrutvam bhavati iti. Tathapi kim bhavati Vishnumitrasya gam dhatu nirupita kartrutvam na bhavati. Astu akhyatarthatvena akhyatena iva sahavyaparopi uchyate. Ataha tatkartrutvam ityanena tritiya vibhaktistu bhavati. Kintu gam dhatu nirupitam gatyarthaka dhatu nirupitam kartrutvam tu nasti. Etohi akhyatena vyaparaha pratiyate tasya tadashayatvat kartrutvam gatyarthaka dhatu nirupitam kartrutvam nasti. Kimartham bhaved iti chete gramam gamayati devadattah Vishnumitram ityasti. Vishnumitraha gramam gachati devadattah Vishnumitram gramam gamayati iti prayogaha. Atra gatibuddhi pratyavasanartha shabdakarma karmakana manikarta sanau ityanena karmatvam uchyate Vishnumitrasya. Atra Vishnumitraha prayojyakarta devadattaha prayojakakarta. Atra gati buddhi gatyarthaka dhatunam prayoge anikarta nau karma bhavati ityanena karmatvam asti. Atra yadi gam dhatu nirupita kartrutvam nasti tada tadipsitatamasya gramasya. Gramasya karmatvam katham karturipsitatamam karma kartuhu ipsitatamam karma. Atra gramam gamana rupa vyaparaha tatra karta Vishnumitraha tasya ipsitatamaha gramaha. Okay, saha gamana kriyaya sambandhum kim ichyati gramam ichyati ataha gramasya karmatvam. Yadi Vishnumitrasya gamdhatu nirupitam kartrutvam nasti tarhi tadipsitatamasya gramasya api gamdhatu nirupitam karmatvam nasyat. Karmatvam tu kathanchit vaktum shakyam, kintu gatyarthaka dhatu nirupitam karmatvam nasti. Nasti chet kim bhavati gatyartha karmani dvitiya chaturthyau cheshtayam anadhvani iti sutram asti. Gramam gachati gramaya gachati iti prayogaha. Gatyartha karmani gatyarthanam dhatunam yat karma tasmat dvitiya chaturthyau vibhakti bhavataha iti sutrarthaha. Ata eva gramam gachati gramaya gachati iti upayam siddhyati. Tena kim kriyate gatyartha karmani eva chaturthi vidhiyate. Yadi atra गत्यर्थकर्मत्वं नास्ति, विष्णुमित्रस्य गत्यर्थकर्तृत्वं नास्ति, तथा च ग्रामस्य गत्यर्थकर्मत्वं नास्ति, तदा ग्रामाय गमयति देवदत्तः विष्णुमित्रम् इत्यपि न स्यात्, अयं प्रयोगः कर्तुम् अशक्यः. ग्रामं गमयति देवदत्तः विष्णुमित्रम् इत्यत्र विष्णुमित्रस्य अकर्तृतापत्तौ, ग्रामस्य गमिकर्वत्व अनापत्तेश्च, तथा च ग्रामाय गमयति देवदत्तः विष्णुमित्रम् इत्यपि न स्यात्, गत्यर्थकर्मणि द्वितीया चतुर्थ्यौ ज्येष्ठायाम् अनध्वनि इति गत्यर्थकर्मण्येव चतुर्थी विधानात्. एतेन निजन्ते आख्यातार्थः उभयम्, नाम उभयोऽपि व्यापारः आख्यातार्थः, तदाश्रयत्वात् देवदत्त यज्ञदत्तयोः कर्तृता इत्यपास्तम्, मीमांसकैरेवमुच्यते. किम् आख्यातेनैव उभयविधः व्यापारः उच्यते, तदाश्रयत्वात् प्रयोजक प्रयोज्ययोः उभयोः कर्तृत्वम्, कर्तृत्वं तु सिध्यति, किन्तु इयम् आपत्तिः भवति यदि गमिकर्मत्वं नास्ति, गत्यर्थधातुनिरूपितं कर्मत्वं नास्ति, तर्हि ग्रामाय गमयति इति प्रयोगः नोपपद्यते. अतः किं वक्तव्यम्? धात्वर्थव्यापाराश्रयः कर्ता इत्येव वक्तव्यम्. तथा सति तत्र किम् आदौ किं प्रदर्शितम्? भावयति घटं, भवति घटं, तत्र तु धात्वर्थव्यापाराश्रयत्वं नास्ति घटस्य, अतः कर्मत्वात् घटं भवति इति द्वितीयापत्तिः. सो हवेवर् यु मोडिफै युर् डेफिनेशन्स्, देर् आर् डिफरेण्ट् कैण्ड्स् आफ् आपत्तीस् विच् आर् शोन्. सो द फस्ट् थिङ्ग्, if you are saying akhyatartha vyaparashraya karta, tada kim bhavati nijanteshu prayojaka kartureva kartrutvam bhavati, prayojya kartuhu kartrutvam na bhavati. Astu tarhi akhyatenaiva vyapara dvayam uchyate iti yadi kathyate, tada gatyartha karmatvam na sambhavati. Gramam gamayati devadattah vishnumitram ityatra. यदि गत्यर्थकर्मत्वं नास्ति तर्हि ग्रामाय गमयति इति चतुर्थी प्रयोगः न स्यात्. अस्तु तर्हि मास्तु आख्यातार्थव्यापारकर्तृत्वं, तर्हि किं वक्तव्यं? धात्वर्थव्यापार आश्रयत्वं कर्तृत्वम् इति चेत् तत्र धात्वर्थव्यापारः यदि नाङ्गीक्रियते तर्हि घटो भावयति इति, घटं भावयति इति यथा तथा घटं भवति इत्यत्रापि द्वितीयापत्तिः. अतः सर्वत्रापि उपपत्यर्थं भावना अथवा व्यापारः धात्वर्थः इत्येव स्वीकरणीयम् इति एका युक्तिः. किञ्च वन् मोर्, सो वेर् एवर् हि सेस् किञ्च, इट् इस् एडिङ्ग् वन् मोर्. सो हि से टेलिङ्ग् सेवरल् आर्ग्युमेण्ट्स् टु प्रूव् दट् भावना धात्वर्थः. आदौ ग्रामोगमनवान् इति प्रयोगापत्तिः दर्शिता, ततः प्रत्ययार्थप्राधान्यन्यायस्य निर्मूलत्वं प्रदर्शितं, तदागमन्यायस्य निर्मूलत्वं प्रदर्शितं, कारकाणां कारकार्थेषु कृत्प्रत्ययानाम् उत्पत्तिः न स्याद् इति आपत्तिः प्रदर्शिता, नखभिन्नादयः समासाः न स्युः इति आपत्तिः प्रदर्शिता, इदानीं घटो भावयति इव घटं भवति इत्यपि इत्यत्र द्वितीयापत्तिः, अथवा ग्रामाय गमयति देवदत्तो विष्णुभक्त्रं मित्रम् इत्यत्र चतुर्थ्याः अनापत्तिः इति दोषः प्रदर्शितः. एतत् सर्वमपि कदा भवति? एते दोषाः यदि भावना धात्वर्थः इति न स्वीक्रियते तदा एते दोषाः सम्भवन्ति. किञ्च, सो द लास्ट् वन् सी इति दिक्, सो वेरेवर् देर् इस् इति दिक् इट् मीन्स् हि इस् स्टापिङ्ग् द आर्ग्युमेण्ट् देर्. अनया दिशा इतोपि विचारयितुं शक्यते, किन्तु अत्र एतावन्मात्रम् उच्यते इति. अतः अस्मिन् प्रकरणे अन्तिमः विचारः, किञ्च तस्मिन् प्रयोगे यः आख्यातार्थः इत्यस्य आवश्यकत्वेन आख्यातशून्ये देवदत्तः पक्ता इत्यादौ देवदत्तस्य अकर्तृतापत्तेः इति दिक्. किमुच्यते? आख्यातार्थव्यापाराश्रयः कर्ता इति स्वीक्रियते. इदानीं द्विविधाः प्रयोगाः दृश्यन्ते. काष्ठैः पचति, काष्ठानि पचन्ति, एतत् दृष्टमस्ति. काष्ठानां यत्र करणत्वेन विवक्षा तदा तृतीया, यदा तु कर्तृत्वेन विवक्षा तदा प्रथमा भवति. एतद्वयमपि सिद्ध्येत् इति चेत् तस्मिन् प्रयोगे यः आख्यातार्थः व्यापारः तदाश्रयः कर्ता इति वक्तव्यम्। यदा काष्ठैः पचति इत्यत्र आख्यातार्थः विक्लित्यनुकूलः व्यापारः, सः व्यापारः देवदत्ते अस्ति, देवदत्तः काष्ठैः पचति, अतः देवदत्तस्य कर्तृत्वम्। काष्ठानि पचन्ति इति प्रयोगे तु आख्यातार्थः ज्वालनरूपः व्यापारः, सो दट् इट् सेल्फ् इस् इण्टेण्डेड् एस् द प्रधान व्यापार, नाट् एनी अदर् व्यापार, बट् द ज्वालन द आक्ट् आफ् बर्निङ्ग् इट् सेल्फ् इस् इण्टेण्डेड् एस् द आख्यातार्थ, तस्य आश्रयत्वात् काष्ठानां कर्तृत्वं वक्तव्यम्। अतः तस्मिन् प्रयोगे यः आख्यातार्थः व्यापारः, इदानीं पचति इत्यत्र यः आख्यातार्थः सः काष्ठानि पचन्ति इत्यत्र स एव न, यदि स एव भवति तर्हि काष्ठानि पचन्ति इति प्रयोगः न स्यात्। अतः तस्मिन् प्रयोगे यः आख्यातार्थः व्यापारः तदाश्रयकर्ता इति वक्तव्यम्। सो विवक्षानुगुणं तस्मिन् प्रयोगे आख्यातार्थः कश्चिद् व्यापारः विवक्ष्यते तदाश्रयकर्ता इति। आख्यातशून्ये यत्र तु आख्यातः नास्ति, देवदत्तः पक्ता इत्यस्ति, पक्ता इति पाककर्ता, तृच् प्रत्ययः, तत्र देवदत्तस्य अकर्तृता पत्तेः, अत्र तु आख्यातः नास्ति, तर्हि आख्यातार्थव्यापाराश्रयकर्ता इति कः कर्ता? वक्तुमेव न शक्यते, देवदत्तस्य कर्तृत्वं न स्यात्। आख्यातशून्ये देवदत्तः पक्ता इत्यादौ देवदत्तस्य अकर्तृता पत्तेः इति दिक्। एवञ्च एतैः सर्वैः कारणैः भावनायाः धात्वर्थत्वम् अङ्गीकरणीयम् इति दिक् इत्यनेन इयं कारिका, अस्याः कारिकायाः विचारः समाप्यते। किं कार्यं पचनीयं चेत्यादिदृष्टं हि कृत्स्वपि किञ्च कारिका न समाप्ता, इतोपि अग्रे अस्ति, किञ्च क्रियावाचकतां विना धातुत्वमेव न इत्युच्यते। ततः पूर्वं कारिकायाः पूर्वार्धेन धात्वर्थवाच्या एव भावना अथवा धातुवाच्या एव भावना न तु आख्यातवाच्या इति साध्यते। किञ्च क्रियावाचकतां विना धातुत्वमेव न इति अग्रे प्रतिपाद्यते। अस्तु, धातुवाच्या भावना वा न वा इति वक्तव्यमेव न, यतोहि क्रियावाचकत्वमेव धातुत्वम्। टु बि काल्ड् अ धातु आल्सो इट् हेस् टु बि अ क्रियावाचक, यदि क्रियावाचकं नास्ति तर्हि धातुत्वमेव न सम्भवति। अतः धातोः भावना वाच्या वा न वा इति विचारः एव न करणीयः, यदि धातुः तर्हि क्रियावाचकः इत्येव अर्थः। यदि स्मर्यते सिद्धान्तकौमुद्यां भूवादयो धातवः इति, क्रियावाचिनः भादयः धातुसंज्ञा स्युः, सूत्रकारेण कण्ठरवेण उक्तं ये क्रियावाचिनः ते एव धातवः, अतः भावनावाचकत्वमेव धातोः लक्षणम्। सो धातु बै डेफिनेशन् एक्स्प्रेसेस् भावना, सो फर्दर् आर्ग्युमेण्ट् आन् वेदर् भावना इस् धातुवाच आर् नाट् विल् नाट् होल्ड् बिकास् आफ् द सूत्र इट् सेल्फ् इति प्रतिपादयति। अग्रिमवर्गे पश्यामः। एनी क्वश्चन्स्? Okay, so there's a request to explain this Gatyartha Karmani. So what he is saying is, see, Nijanta Prayogaha Asti, Gramam Gamayati Devadattaha Vishnumitram Iti Prayogaha. So what does this Prayoga has Gamayati as the Dhatu, Nijanta Dhatu. So this Dhatu, there are actually two Dhatus there. So the original Dhatu is Gam. Okay. And the Nijanta Dhatu is Gami. Okay? Gam iti kevala dhatu. Gami is the Nijanta Dhatu. So what is the Siddhanta according to us? Okay, I'll first explain the Siddhanta according to Vaiyakaranas. So what do we say? Tatra, there is the kevala dhatu Gam which means Uttaradesha Sanyoganukulaha Vyaparaha. So, for that, we have a Karta, which is Vishnumitra. Vishnumitraha Gachati, Vishnumitraha Gramam Gachati, iti Prayogaha. So, for the Kevala Dhadu Gamana Kriyayam, Vishnumitraha Karta, Gramaha Karma. Okay. So, this is Gatyartha Karma, because it is karma for the Gam Dhatu, and Vishnumitra is the karta for the Gam Dhatu. So, when we add the second Vyapara, second level of Vyapara, which is the Prerana, Gami, it is Nijanta. So, for the Nijanta, there is a Vyapara, and the Ashraya for that Vyapara is Devadatta. The thing on the Nijanta Dhatu, we are adding the thing to the Gami, the Nijanta Dhatu. So, the thing expresses the karta of the Nijanta Dhatu. Okay. So, Devadattaha Gamayati. That's why we have Prathama on Devadatta. Now, Vishnumitra is also karta. Okay. He is the karta of Gachati, the original Kriya, the actual Kriya of going. But there is a special sutra which is Gati Buddhi Pratyavasanartha, because of which he is called Karma. Even though he is actually the karta, he gets the karmatva, because of which we have dvitiya. Now, grama is the original gatyartha karma, so we have dvitiya on grama. Now, the sutra says, gatyartha karmani dvitiya chaturthyau cheshtayam anadhvani. So, that sutra says, gatyartha karmani, when there is a karma, this is not karmani, there is a typing error, karmani, gatyartha karmani. So, a karma for a gatyarthaka dhatu, it gets both dvitiya and chaturthi vibhakti. Normally, we have only dvitiya, by karmani dvitiya. Gatyartha karmani, yatra gatyarthasya karmatvam asti, tatra dvitiya vibhakti api bhavati, chaturthi api bhavati. So, cheshtaya manadvani, we are not worried about right now. So, there is a particular condition, let's not worry. So, it says gatyartha karmani dvitiya chaturthyo. So, something which is a karma for a gatyartha dhatu, so a karma for gati or for going, it gets both dvitiya and chaturthi. That is why we have gramaya gamayati devadattaha vishnumitram or gramam gamayati devadattaha vishnumitram. We can have chaturthi on both, both chaturthi and dvitiya on grama. But we will not have chaturthi on vishnumitra because he is not gatyartha karma. He is the karma for the nijanta. Okay. Anikarta saha nau karma bhavati. Itena nijante karma. So, he is the karma for the causal action. He is not the karma for the original gati. Okay. He is karma for the causal action and not for gati. So, that is why you cannot have Vishnumitraya. So, the chaturthi will apply only for the gatyartha karma, where it is a karma for going. Okay, that is our Siddhanta. So, according to Vyakaranas, everything is fine. What happens when you go according to Mimamsakas? They are saying, Akhyatartha Vyaparashraya Karta. They define the Karta using the Akhyatartha Vyapara. Okay. And in Nijanta, they are saying that the Akhyata, Ting Pratyaya on the Nijanta Dhatu, it expresses two Vyaparas, two actions. So, the Ashraya for both the actions are karta. So, that is why both Prayojaka Karta and Prayojya Karta gets Kartrutva. Okay. So, because of that, you can defend the Vibhakti on both Devadatta and Vishnumitra. Okay. Anikarta Sanav, all that is fine. But the problem now is, Grama is not Gatyartha Karma. Because you are the Vishnumitra, the Prayojaka Karta, you are getting through the Akhyata, the Pratyaya, which is on the Nijanta. Okay. So, you are getting the Karta out of relation through the Akhyata, the Pratyaya, which is on the Nijanta, not directly on the Gatyarthaka Dhatu, because of which he is not Gatyartha Karta, and therefore Grama is not Gatyartha Karma. So, since Grama is not Gatyartha Karma, we cannot have Chaturthi. Gramaya Gamayati Devadattaha Vishnumittam Iti Prayogaha Na Bhavati Iti Apatti. Okay, clear? Okay, there was one more question. Can you please explain the meaning of the sutra discussed in the second last slide? Sorry, which is the sutra? I assume it's the same sutra, Ashita?
Yes, ma'am. Same one. You explained. Thank you.
Okay. Any other questions? ಪಣಿಭಾಷಿತ ಭಾಷ್ಯಾಭ್ಯೆ ಶಬ್ದಕೌಸ್ತುಭ ಉದ್ಧೃತಃ ತತ್ವ ನಿರ್ಣೀತ ಏವಾರ್ಥಃ ಸಂಕ್ಷೇಪೇಣೇಹ ಕಥ್ಯತೆ ಫಲವ್ಯಾಪಾರಯೋರ್ಧಾತುಃ ಆಶ್ರಯೇತು ತಿಂಗಸ್ಮೃತಾಃ ಫಲೇ ಪ್ರಧಾನಂ ವ್ಯಾಪಾರಸ್ತಿಂಗರ್ಥಸ್ತು ವಿಶೇಷಣಂ ಫಲವ್ಯಾಪಾರಯೋಸ್ತತ್ರ ಫಲೇ ತಂಗ್ಯಕ್ಷಿಣಾದಯಃ ವ್ಯಾಪಾರೇ ಶಪ್ಷ್ಣಮಾದ್ಯಾಸ್ತು ದ್ಯೋತಯಂತ್ಯಾಶ್ರಯಾನ್ವಯಂ ಉತ್ಸರ್ಗೋಯಂ ಕರ್ಮಕರ್ತೃವಿಷಯಾದೌ ವಿಪರ್ಯಯಾತ್ ತಸ್ಮಾದ್ಯಥೋಚಿತಂ ಜ್ಞೇಯಂ ದ್ಯೋತಕತ್ವನ್ಯಥಾಗಮಂ ವ್ಯಾಪಾರೋ ಭಾವನಾ ಸೈವೋತ್ಪಾದನಾ ಸೈವ ಚ ಕ್ರಿಯಾ ಕೃಣ್ಯೋ ಕರ್ಮಕಥಾಪತ್ತೇರ್ನ ಹಿ ಯತ್ನೋರ್ಥ ಇಷ್ಯತೆ ಕಿಂತೂತ್ಪಾದನಮೇವಾತಃ ಕರ್ಮವತ್ಸ್ಯಾದ್ಯಗಾದ್ಯಪಿ ಕರ್ಮಕರ್ತರ್ಯನ್ಯಥಾತು ನ ಭವೇತ್ತದೃಶೇರಿವ ನಿರ್ವರ್ತ್ಯೇ ಚ ವಿಕಾರ್ಯೇ ಚ ಕರ್ಮವದ್ಭಾವ ಇಷ್ಯತೆ ನತು ಪ್ರಾಪ್ಯೇ ಕರ್ಮಣೀತಿ ಸಿದ್ಧಾಂತೋತ್ರ ವ್ಯವಸ್ಥಿತಃ ತಸ್ಮಾತ್ ಕರೋತಿರ್ಧಾತೋ ಸ್ಯಾದ್ ವ್ಯಾಖ್ಯಾನನ್ನತ್ವಸೌತಿಗಾಂ ಪಕ್ವವಾನ್ ಕೃತವಾನ್ ಪಾಕಂ ಕಿಂಕೃತಂ ಪಕ್ವಮಿತ್ಯಪಿ ಕಿಂ ಕಾರ್ಯಂ ಪಚನೀಯಂಚೇತ್ಯಾದಿ ದೃಷ್ಟಂ ಹಿ ಕೃತ್ಸ್ವಪಿ ಕಿಂಚ ಕ್ರಿಯಾ ವಾಚಕತಾಂ ವಿನಾ ಧಾತುತ್ವಮೇವ ನ ಸರ್ವನಾಮಾವ್ಯಯಾದೀನಾಂ ಯಾವಾದೀನಾಂ ಪ್ರಸಂಗತಃ ನಹಿ ತತ್ ಪಾಠಮಾತ್ರೇಣ ಯುಕ್ತಮಿತ್ಯಾಕರೇ ಸ್ಫುಟಂ ಧಾತ್ವರ್ಥತ್ವಂ ಕ್ರಿಯಾತ್ವಂಚೇತ್ ಧಾತುತ್ವಂಚ ಕ್ರಿಯಾರ್ಥತ ಅನ್ಯೋನ್ಯ ಸಂಶಯ ಸ್ಪಷ್ಟಸ್ತಸ್ಮಾದಸ್ತು ಯಥಾಕರಂ ಅಸ್ತ್ಯಾದಾವಪಿ ಧರ್ಮ್ಯಂಶೇ ಭಾವ್ಯೇಸ್ತ್ಯೇವ ಹಿ ಭಾವನಾ ಅನ್ಯತ್ರಾಶೇಷಭಾವಾತ್ತು ಸಾ ತಥಾ ನ ಪ್ರಕಾಶತೆ ಫಲವ್ಯಾಪಾರಯೋರೇಕನಿಷ್ಠತಾಯಾಮಕರ್ಮಕಃ ಧಾತುಸ್ತಯೋರ್ಧರ್ಮಿಭೇದೇ ಸಕರ್ಮಕ ಉದಾಹೃತಃ ಆಖ್ಯಾತಶಬ್ದೇ ಭಾಗಾಭ್ಯಾಂ ಸಾಧ್ಯಸಾಧನರೂಪತಾ ಪ್ರಕಲ್ಪಿತಾ ಯಥಾ ಶಾಸ್ತ್ರೇ ಸಘನ್ಯಾದಿಷ್ವಪಿ ಕ್ರಮಃ ಸಾಧ್ಯತ್ವೇನ ಕ್ರಿಯಾ ತತ್ರ ಧಾತುರೂಪನಿಬಂಧನಾ ಸಿದ್ಧಭಾವಸ್ತು ಯಸ್ತಸ್ಯಾ ಸಘನ್ಯಾದಿನಿಬಂಧನಃ ಸಂಬೋಧನಾಂತಂ ಕೃತ್ವೋರ್ಥಃ ಕಾರಕಂ ಪ್ರಥಮೋವತಿ ಧಾತು ಸಂಬಂಧಾಧಿಕಾರ ನಿಷ್ಪನ್ನಮಸಮಸ್ತನನ್ಯ ತಥಾ ಯಸ್ಯ ಚ ಭಾವೇನ ಷಷ್ಠೀ ಚೇತ್ಯುದಿತಂ ದ್ವಯಂ ಸಾಧುತ್ವಮಷ್ಟಕಸ್ಯಾಸ್ಯ ಕ್ರಿಯಯೈವಾವಧಾರ್ಯತಾಂ ಯದಿ ಪಕ್ಷೇಪಿ ವತ್ಯರ್ಥಃ ಕಾರಕಂಚನನ್ಯಾದಿಷು ಅನ್ನೇತಿ ತ್ಯಜ್ಯತಾಂ ತರ್ಹಿ ಚತುರ್ಥ್ಯಾ ಸ್ಪೃಹಿ ಕಲ್ಪನಾ ಅವಿಗ್ರಹಾಗತಾದಿಸ್ಥಾ ಯಥಾ ಗ್ರಾಮಾದಿಕರ್ಮಭಿಃ ಕ್ರಿಯಾ ಸಂಬಧ್ಯತೆ ತದ್ವತ್ ಕೃತಪೂರ್ವ್ಯಾದಿಷು ಸ್ಥಿತಾ ಕೃತ್ವೋರ್ಥಾಃ ಕ್ತ್ವಾತು ಮುನ್ವತ್ಸ್ಯುಃ ಇತಿ ಚೇತ್ಸಂತಿ ಹಿ ಕ್ವಚಿದ್ ಅತಿಪ್ರಸಂಗೋ ನೋದ್ಭಾವ್ಯೋಭಿಧಾನಸ್ಯ ಸಮಾಶ್ರಯಾತ್ ಭೇದ್ಯಭೇದಕ ಸಂಬಂಧೋಪಾಧಿಭೇದ ನಿಬಂಧನಂ ಸಾಧುತ್ವಂ ತದಭಾವೇಪಿ ಬೋಧೋ ನೇಹ ನಿವಾರ್ಯತೆ ಶ್ರೀಲಕ್ಷ್ಮೀ ರಮಣಂ ನೌಮಿ ಗೌರೀ ರಮಣರೂಪಿಣಂ ಸ್ಫೋಟರೂಪಿ ಯತಃ ಸರ್ವಂ ಜಗದೇತದ್ವಿವರ್ತತೆ. ನೆಕ್ಸ್ಟ್ ಕ್ಲಾಸ್ ನೆಕ್ಸ್ಟ್ ಟ್ಯೂಸ್ಡೇ. ಧನ್ಯವಾದ.